इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः पुरुषोत्तम शर्मा। आदौ मुख्य वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अवदत् यत् स्वच्छतायाः प्रतिबद्धता सम्पूर्णजीवनस्य प्रतिज्ञा वर्तते। तेन जनाः समाहूताः यत् स्वच्छतां जीवनस्य अंगत्वेन स्वीकुर्युः। विश्वस्वास्थ्यसंघटनस्य महानिदेशकेन टेड्रोस एड्नॉम गेब्रियासुन इत्यनेन अद्य प्रधानमन्त्रिणः नरेन्द्रमोदिनः प्रशंसा कृता। कृतज्ञं राष्ट्रम् अद्य राष्ट्रपितुः महात्मगान्धिनः, पूर्वप्रधानमन्त्रिणः लालबहादुरशास्त्रिणः च जन्मजयन्त्यवसरे श्रद्धाकुसुमानि समर्पयति। प्रधानमन्त्री नरेन्द्रमोदी अद्य झारखण्डे 300-380,000 कोटि रूप्यकाणां विविध परियोजनानां आधारशिलां स्थापयत्। बिहारस्य 16 जनपदेषु अनवरतं साहाय्योद्धारकार्याणि विधीयन्ते। अपि च पेरूदेशस्य लीमानगरे प्रचाल्यमानायां ISSF इति कनिष्ठ विश्व लक्ष्यभेद प्रतिस्पर्धायां चतुर्थे दिवसे भारतेन 5 स्वर्णपदकानि इतोऽपि विजितानि। अथ वार्ताः विस्तरेण। प्रधानमन्त्री नरेन्द्रमोदी अवदत् यत् स्वच्छतायाः प्रतिबद्धता सम्पूर्णजीवनस्य प्रतिज्ञा वर्तते। तेन जनाः समाहूताः यत् स्वच्छतां जीवनस्य अंगत्वेन स्वीकुर्युः। स्वच्छताभियानस्य 10-वर्षपूर्त्यवसरे अद्य राजधान्यां नवदिल्ल्यां ऐषमः स्वच्छता एव सेवा कार्यक्रमं सम्बोधयन् प्रधानमन्त्रिणा स्वच्छतां जनान्दोलनं विधातुं 44.5 कोटि भारतीयानां भावना प्रणमिता। प्रधानमन्त्री अवोचत् यत् 15 दिनेषु स्वच्छता पखवाड़ा इत्यस्य अन्तर्गतं देशे 27 लक्षाधिककार्यक्रमाः आयोजिताः। एतेषु कार्यक्रमेषु 28 कोट्यधिकाः जनाः प्रतिभागं कृतवन्तः। श्रीमोदी अवोचत् यत् अयं दिवसः अस्मान् महात्मगान्धिनः, देशस्य अन्य महापुरुषाणां च स्वप्नकल्पितभारतं वास्तविकरूपेण परिवर्तितुं प्रेरयति। स्वच्छभारताभियानस्य सफलतायां समेषां देशवासिनां, स्वच्छताकर्मिणां, धार्मिकनेतृणां, क्रीडकाणां, प्रसिद्धजनानां, प्रशासनेतरसंघटनानां, वार्ताभिकरणानां च योगदानं प्रधानमन्त्रिणा प्रशंसितम्।
आज से 1000 साल बाद भी जब 21वीं सदी की भारत का अध्ययन होगा तो उसमें स्वच्छ भारत अभियान को जरूर याद किया जाएगा। स्वच्छ भारत इस सदी में दुनिया का सबसे बड़ा और सबसे सफल जन भागीदारी वाला, जन नेतृत्व वाला जन आंदोलन है।
प्रधानमन्त्रिणा अद्य 10,000 कोटि रूप्यकाणां स्वच्छता परियोजनानां अपि चर्चा कृता। विश्वस्वास्थ्यसंघटनस्य महानिदेशकेन अद्य प्रधानमन्त्रिणः नरेन्द्रमोदिनः प्रशंसा कृता। सममेव स्वच्छभारताभियानस्य माध्यमेन सततविकासलक्ष्यप्राप्तये च सर्वकारस्य महत्वपूर्णप्रगतिः प्रशंसिता। अनेन स्वच्छभारताभियानेन स्वच्छराष्ट्रसमेधितुं समुदायाः संघटिताः। कृतज्ञं राष्ट्रम् अद्य राष्ट्रपितुः महात्मगान्धिनः 55.1शततमजन्मजयन्त्यवसरे तस्मै श्रद्धाञ्जलिम् अर्पयति। सहैव पूर्वप्रधानमन्त्रिणः लालबहादुरशास्त्रिणः जयन्त्यवसरेऽपि श्रद्धाकुसुमानि समर्पयति। राष्ट्रपतिः द्रौपदी मुर्मुः, उपराष्ट्रपतिः जगदीप धनखड़ः, प्रधानमन्त्री नरेन्द्रमोदी च महात्मगान्धिने, लालबहादुरशास्त्रिणे च श्रद्धाञ्जलिम् अर्पितवन्तः। राष्ट्रपतिः द्रौपदी मुर्मुः देशवासिभ्यः सत्य, अहिंसा, प्रेम, पवित्रता इत्येतेषां मूल्यानि आत्मसात् कर्तुम् आग्रहं कृतवती। अपि च महात्मगान्धिनः स्वप्नानां भारतस्य विचारेण सह देशसमाजयोः विकासगतिं नैरन्तर्येण समेधितुं समाह्वानमपि कृतवती। राष्ट्रपितुः महात्मगान्धिनः जन्मतिथेः पुण्यावसरे अनया प्रोक्तं यत् सत्याहिंसयोः प्रबलानुयायिनः राष्ट्रपितुः समग्रं जीवनं मानवतायै कल्याणप्रदसन्देशरूपेण प्रतिष्ठितमस्ति। पूर्व प्रधानमन्त्रिणे लालबहादुर शास्त्रिणे श्रद्धाञ्जलिम् अर्पयन् प्रधानमन्त्री नरेन्द्रमोदी अवोचत् यत् लालबहादुर शास्त्रिणा देशस्य वीराणां कृषकाणां च आत्मसम्मानाय सीवनं स्वीयं जीवनं समर्पितम्। संस्कृतवार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newzoneair.gov.in इत्यत्र अथ newzoneair चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। प्रधानमन्त्री नरेन्द्रमोदी अद्य झारखण्डस्य हजारीबागक्षेत्रे 383,000,000,000,000 रूप्यकाणां विविध परियोजनानां आधारशिलां स्थापयत्, लोकार्पणं च कृतवान्। एतासु परियोजनासु धरती आबा जनजातीय ग्राम उत्कर्ष अभियानं प्रमुखम् अस्ति, यत् हि 1,570,000,000,000 रूप्यकाणां वर्तते। एतासु परियोजनासु प्रधानमन्त्री जनजातीय आदिवासी न्याय महाभियानस्य अन्तर्गत निहितानि कार्याणि सम्मिलितानि सन्ति। प्रधानमन्त्रिणा 40 एकलव्यविद्यालयानां लोकार्पणं कृतम्, 25 एकलव्यविद्यालयानां आधारशिला अपि प्रधानमन्त्रिणा स्थापिता। अत्रावसरे हजारीबागे विनोबाभावे विश्वविद्यालयस्य परिसरे जनान् सम्बोधयन् श्रीमोदी अवोचत् यत् नैकाः परियोजनाः आदिवासीसमुदायं सशक्तं विधातुं राज्ये ग्रामीणाधारभूतसंरचनां समेधितुं च प्रयासान् महत्वपूर्णरूपेण सहायकाः भविष्यन्ति। प्रधानमन्त्री अवोचत् यत् देशस्य जनजातीयसमुदायस्य विकासं विना भारतस्य विकासः स्वप्नकल्पितभारतस्य विकासः नैव सम्भविष्यति। प्रधानमन्त्रिणा उक्तं यत् एताभिः परियोजनाभिः 5 कोट्यधिकेभ्यः आदिवासीभ्यः जनेभ्यः लाभो भविष्यति।
झारखण्ड के हजारों गरीबों को पीएम आवास योजना के तहत अपना पक्का घर मिला था और अब कुछ ही दिनों के आज फिर एक बार झारखंड आकर के आज झारखंड से 80,000 करोड़ रुपए से ज्यादा की विकास परियोजनाओं का शिलान्यास और लोकार्पण हुआ है। ये योजनाएं आदिवासी समाज के कल्याण और आदिवासी समाज के उत्थान से जुड़ी है।
श्री मोदी प्रावोचत् यत् आदिवासी कल्याणं सर्वकारस्य सर्वोच्च प्राथमिकतासु वर्तते। प्रधानमन्त्री अवोचत् यत् धरती आबा जनजातीय ग्राम उत्कर्ष अभियानं महत्वपूर्णं वर्तते, यस्य उद्देश्यम् आदिवासी ग्रामेषु समग्र विकास संवर्धनम् अथ च क्षेत्रस्य सामाजिक आर्थिक परिदृश्ये प्रमुख परिवर्तनोत्पादनं वर्तते। बिहारे जलौघेन सहरसा मधेपुरा पूर्णिया मुजफ्फरपुर समस्तीपुर कटिहार प्रभृति क्षेत्रेषु स्थितिः गभीरा वर्तते। राज्ये गण्डक कोसी नद्यौ आपच्चिह्नादुपरि प्रवहतः, तत्रैव बागमती कमलाबलान महानन्दा च नद्यः पूर्णवेगेन प्रवहन्ति। अस्माकं वार्ताहरेण सूचितं यत् जलौघकारणेन इदानीं यावत् 16 जनपदेषु 12,00,000+ जनाः दुष्प्रभाविताः सन्ति। राज्ये साहाय्योद्धारकार्याणि सजवं विधीयन्ते, परं मार्गध्वंसकारणेन साहाय्योद्धारे कुत्रचित् काठिन्यं सम्भाव्यते। हरियाणायां निर्वाचनप्रचारः अन्तिमचरणे अस्ति। राज्यस्य विभिन्नेषु विधानसभाक्षेत्रेषु समेषां राजनीतिकदलानां प्रमुखनेतारः जनसभाः पथप्रदर्शन्यः च कुर्वन्ति। विदेशमन्त्रालयेन अद्य भारतीयनागरिकेभ्यः परामर्शः प्रदत्तः यत् ते ईरानदेशस्य सर्वाः अनावश्यकयात्राः परिहरन्तु इति। पेरूदेशस्य लीमानगरे प्राचाल्यमाणायां आईएसएसएफ इति अन्ताराष्ट्रियलक्ष्यभेदस्पर्धासंघस्य कनिष्ठविश्वप्रतिस्पर्धायां चतुर्थे दिवसे महिलानां 25 मीटर परिमितायां एयर राइफल इत्यस्यां स्पर्धायां भारतस्य दिवांशी इत्यनया 2 स्वर्णपदके समर्जिते। अवधेयं यत् 25 मीटर परिमिते एयर राइफल इति निजी उपलब्धिग्रहणात् पूर्वं भारतस्य तेजस्विनी विभूतिभाटिया इत्युभ्याभ्यां मिलित्वा 25 एयर मीटर राइफल प्रतिस्पर्धायां स्वर्णपदकं समर्जितम् इति वार्ताः।